भ्रातर्युजा विबोधयास्विनामेह गच्छता अस्य सोमस्य पीतये या सुरथा रचितमोभा देवादि विस्पृशा अस्मिनाताः वामहे या वाङ्कसा मधुमत्यस्मिना सूनृतावती तया यज्ञम् मीमिक्षतम् न हि वामस्ति दूरके यत्रा रथेन गच्छतः अस्मिना सोमिनो गृहम् हिरण्यवाणि भूतये सवितारमुपह्वये सेता देवता पदम् अपाङ्गपादमवसे सवितारमुपस्तुः तस्य व्रतान्यस्मसि विभक्तारम् भवामहे वसोश्चित्रस्य राधसः सवितारम् वृचक्षसम् सखायानिषीदत सवितास्तोम्योम्नाः दाराधांसि शुम्भति अग्नेपत्नीरिहावः देवानामुषतीरुप वष्टारम् सोमादीतये आग्ना अग्नजिहावसे होत्राङ्गविष्टभारती भीषणाम् वः अभिनो देवीरवसा वः सर्वणा नृपत्नीः अच्छिन्नरत्रासयन्ता येम् याणीमुपह्वये वरुणानीम् स्वस्तये अग्नायीम् सोमवीतये महीद्यौ पृथिवी च न इमम् यज्ञम् मीमिक्षताम् विभृताम् नो भरीमभिः तयोरिद्धृतमत्तयो विप्रारिहन्ति भीतिभिः गन्धर्वस्य ध्रुवे पदे यो न पृथिवी भवानक्षरानिवेशानि यच्छा नः सन्म सप्रथाः अतो देवा वन्दुनो यतो विष्णुर्विचक्रमे पृथिव्याः सप्तधामभिः इयम् विष्णुर्विचक्रमे त्रेधानि दधे पदम् समूढमस्य वाम् सुरे त्रीणि पदानि चक्रमे विष्णुर्गोपादाभ्यः अतो धर्माणि धारयन् विष्णाः कर्माणि वस्य दयतो भृतानि वस्पसे इन्द्रस्य युज्यस्सखा तद्विष्णाः परमम् पदम् सदा पश्यन्ति सूरयाः दिवीवचक्षुरादतम् तद्विप्रासो विपन्यवो जाघ्रवाम् सस्वमिन्धते कृष्णा यत्परमम्